इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्दझाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां भारतमण्डपे युग्मसम्मेलने सहभागं करिष्यति। एतत् प्रथमं तादृशं महत्वपूर्णं नीतिगतं सम्मेलनम् अस्ति यत्र प्रशासनं शैक्षणिकक्षेत्रं व्यापारजगत् नवाचार पारिस्थितिकी तन्त्र सम्बद्धाः श्रेष्ठाः वरिष्ठाः च जनाः सहभागं करिष्यन्ति। भारतस्य नवाचार यात्रायाम् एतत् सम्मेलनं महत्वपूर्णां भूमिकां निर्वक्ष्यतीति आकल्प्यते। प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्रिणा राजनाथसिंहेन सह गतदिने नवदिल्ल्यां स्वनिवासस्थाने उपवेशनं कृतवान्। प्रायः चत्वारिंशन्निमेषपर्यन्तं प्रचलितेऽस्मिन् उपवेशने पहलगाम आतंक्याक्रमणम् आलक्ष्य कार्याचरणेषु चर्चा जाता। षड्विंशतिसंख्याकानां राफेल इत्येतेषां योद्धृविमानानां क्रयणार्थं फ्रांसदेशेन सह सन्धिपत्रमेकं भारतेन हस्ताक्षरैः प्रमाणितम्। रक्षामन्त्रालयस्य फ्रांससर्वकारस्य च अधिकारिणाम् उपस्थितौ नवदिल्ल्याम् एतस्मिन् अन्तःसर्वकारीय रक्षासन्धिपत्रे रक्षामन्त्रिणा राजनाथसिंहेन फ्रांसदेशस्य सशस्त्रबलमन्त्रिणा सेबेस्टियन लेकार्नो इत्यनेन च हस्ताक्षराणि कृतानि। षड्विंशतिसंख्यकेषु राफेल मरीन जेट इत्येतेषु विमानेषु द्वाविंशतिः एकासनयुक्तानि चत्वारि च युगलासनयुक्तानि आसनानि भविष्यन्ति। एतानि भारतीय नौसेनायाः आवश्यकतानुगुणानि परिकल्पितानि भविष्यन्ति। राफेल मरीन जेट्स इत्यस्य समावेशनेन नौसेनायाः शक्तिः प्रवर्धिता। एतानि योद्धृविमानानि INS विक्रमादित्य INS विक्रांत इत्यादिषु विमानवाहकेषु नियोजितानि भविष्यन्ति। राफेल इति विमानम् उन्नतशस्त्रव्यवस्थया सुसज्जितं भविष्यति। ध्यानास्पदम् अस्ति यत् एतेषां योद्धृविमानानाम् आपूर्तिः 30-2000 यावत् भविष्यति। राष्ट्रपतिपदासीना द्रौपदी मुर्मूः गतदिने नवदिल्ल्यां राष्ट्रपतिभवने प्रथमे नागरिकालंकरण समारोहे एकसप्तति पद्म पुरस्कारान् प्राददात्। अस्मिन् वर्षे गणतन्त्रदिवसस्य पूर्वसन्ध्यायां प्रशासनेन पद्म पुरस्कारेभ्यः समुद्घोषितम् आसीत्। अत्र चत्वारि पद्म भूषणानि क्षम्यताम् अत्र चत्वारि पद्म विभूषणानि 10 पद्मभूषणानि 57 पद्मश्रीसम्मानानि च ह्यः राष्ट्रपतिना वितरितानि। भारतीयर्तु विभागेन नागालैण्ड मणिपुर मिजोरम त्रिपुरा असम ओडिशा मेघालयेभ्यः अद्य प्रबलवृष्ट्याः संकेतः कृतः अस्ति। अथ क्रीडावार्ताः। महिलानाम् एकदिवसीयान्ताराष्ट्रिय त्रिकोणीय क्रिकेट स्पर्धा मालिकायां कोलम्बोनगरे अद्य भारतीय महिलावृन्दं दक्षिणाफ्रीकादलं सम्मुखीकरिष्यति। इयं स्पर्धा आर प्रेमदासा क्रीडांगणे भारतीय कालानुसारि प्रातः 10 वादने आरप्स्यते। ध्यानास्पदम् अस्ति यत् हरमनप्रीत कौरस्य नेतृत्वे रविवासरे भारतेन श्रीलंकादलं 9 क्रीडकैः पराजितम्। अपरतः इण्डियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ जयपुरे सवाई मानसिंह क्रीडांगणे आयोजिते द्वन्द्वे वैभव सूर्यवंशी यशस्वी जायसवालयोः श्रेष्ठ प्रदर्शन कारणात् राजस्थान रॉयल्स दलेन गुजरात टाइटन्स दलं 8 क्रीडकैः पराजितम्। अद्य दिल्ल्यां डेल्ही कैपिटल्स कोलकाता नाइट राइडर्स दलयोः स्पर्धा भविष्यति इति वार्ताः।